इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः प्रधानमन्त्री नरेन्द्रमोदी आन्ध्रप्रदेशस्य मुख्यमन्त्रिणा चन्द्रबाबू नायडुना तेलंगानायाः च मुख्यमन्त्रिणा ए रेवन्थ रेड्डी इत्येतेन सह अतिवृष्टेः जलाप्लावस्य स्थितेः समीक्षा चर्चायाः माध्यमेन कृतवान्। तौ समाह्वानं पारयितुं केन्द्रात् सर्वाणि सम्भाव्य सहायतायाम् आश्वासितवान्। भारतीय जनता पार्टीति अद्यारभ्य सदस्यताभियानस्य आरम्भं करोति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सदस्यतायाः नवीकरणस्य प्रमाणपत्रं भाजपाध्यक्षात् जगत्प्रकाशनड्डा इत्यस्मात् सम्प्राप्य अस्य अभियानस्य आरम्भः भविष्यति। विद्यमानानां सर्वेषां सदस्यानां सदस्यतायाः नवीकरणस्य आवश्यकता भविष्यति। भाजपेति दलस्य संविधानानुसारं प्रत्येकं पञ्च षड्वर्षेषु सदस्यता अभियानानि नवीनतया क्रियन्ते। अद्यारभ्य नवम्बर मासस्य दशमदिनांकपर्यन्तं चरणबद्धरूपेण अभियानं प्रचलिष्यति। अस्य सदस्यताभियानस्य प्रथमं चरणं सितम्बर मासस्य पञ्चविंशतिदिनांके समापनं भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् प्रकरणानां लम्बनं न्यूनीकर्तुं न्यायपालिकायाः समक्षं महत् समाह्वानम् अस्ति। गतसायं नवदिल्ल्याः भारतमण्डपम् इत्यत्र जनपदन्यायपालिकायाः द्विदिनात्मकं राष्ट्रियसम्मेलनं सम्बोधयन्ति राष्ट्रपतिः अवदत् यत् हितधारकैः एकत्रितं सम्भूय लम्बितप्रकरणान् निवारणाय समाधानम् अन्वेष्टव्या। सा द्वात्रिंशत् वर्षेषु अधिकं यावत् लम्बितप्रकरणेषु गभीरेषु विषयेषु चिन्तनस्य आवश्यकतां बोधितवती। राष्ट्रपतिः श्रीमुर्मुः प्रोक्तवती यत् दुष्कर्मादिषु अक्षम्य अपराधेषु न्यायालयस्य निर्णयाः एकस्य वंशस्य व्यतीतस्य अनन्तरम् आगच्छन्ति। सा अवदत् यत् अस्मात् कारणात् सामान्यजनः न्यायिकप्रक्रियायां संवेदनशीलतायाः अभावम् अनुभवति। कार्यक्रमावधौ राष्ट्रपतिः द्रौपदी मुर्मुः सर्वोच्चन्यायालयस्य नूतनध्वजस्य प्रतीकचिह्नस्य च अनावरणम् अकरोत्। सममेव सा राष्ट्रिय जनपद न्यायपालिका सम्मेलनस्य समापनसत्रमपि सम्बोधयत्। अस्य द्विदिवसीय सम्मेलनस्य आयोजनं सर्वोच्चन्यायालयेन कृतम्। अस्मिन् जनपद न्यायपालिकायां पञ्च सत्राणि आयोजितानि। तेषु आधिकारिक संरचना, समग्र न्यायालय कक्षः, न्यायिक सुरक्षा प्रकरण प्रबन्धनं प्रशिक्षणं च सम्मिलितानि आसन्। पश्चिम एशियायां गजापट्टिकायां संयुक्त राष्ट्र संघस्य अभिकरणैः चत्वारिंशत्सहस्राधिक षड्लक्षं यावत् बालकानां पोलियो विरुद्धं सूच्यौषधीकरणाय अभियानम् एकं प्रारब्धम्। इज़राइल सैनिकानां हमास योद्धृणां च युद्धे स्थानीय विरामस्य श्रृंखलायाम् इदम् अभियानम् आधारितम् अस्ति। सूच्यौषधी अभियानम् ह्यः एव मध्य गजा क्षेत्रेषु समारब्धम्। आगामिषु दिवसेषु अन्येषु क्षेत्रेषु अपि भविष्यति। समग्रदेशे ह्यः आरभ्य राष्ट्रिय पोषण सप्ताह समाचर्यते। अयं सप्ताह प्रतिवर्षं सितम्बर मासस्य प्रथमदिनांकतः सप्तमदिनांकं यावत् परिपाल्यते। अस्य वार्षिक कार्यक्रमस्य प्रारम्भः द्वयशीत्यधिक नवदशशततमे वर्षे महिला बाल विकास मन्त्रालयस्य खाद्य पोषण मण्डल द्वारा विहितः। पेरिस पैरालम्पिक क्रीडायां निषाद कुमारः पुरुषाणाम् उच्चकूर्दन टी 47 स्पर्धायां रजत पदकं विजितवान्। इति वार्ताः।